ृणीमहे गातुं यज्ञाय गातुं यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वं जिगातु भेषजं शं नोऽस्तु द्विपदे शं चतुष्पदे शांति 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 सहस्रशील शापुरुषः सहस्राक्ष सहस्रपाद स भूमिं विश्वतो वृत्वा अत्यतिष्ठत् दशाङ्गुलं पुरुष एवेदगुं सर्वम् यद्भूतं यच्च भव्यम् उतामृतत्वस्येशानः यदन्नेनातिरोहति एतावानस्य महिमा अतो जायागुश्च पुरुषः पादोऽस्य विश्वाभूतानि त्रिपादस्यामृतं दिवि त्रिपादोद्भवुदैत्पुरुषः पादोऽस्येहाभवात्पुनः ततो विश्वं व्यक्रामत साशनानशने अभि तस्माद्विराट जायत विराजोऽधिपुरुषः स जातो अत्यरिक्षत पश्चाद्भूमिमतो पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्वता वसन्तोऽस्याश्रीदाज्यम् ग्रीष्मयुग्मशरद्धरिः सप्तास्यासन् परिधयः त्रिसप्त समिधः कृताः देवायत्यज्ञं तन्वानाः अबध्नन् पुरुषं पशुं तं यज्ञं वर्षि प्रोक्षन् पुरुषं जातमक्रतः तेन देवायजन्ता साध्यार्षयश्च ये तस्माद्यज्ञात् सर्वहुतः संवृतं वृषदाक्षम् पशोस्तागश्चक्रे वायव्यान् आरण्यान् ग्राम्याश्च ये तस्माद्यज्ञात् सर्वहुतः ऋचः सामानि जग्निरे छन्दागुंसि जग्निरे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्त ये केचो भयादतः गावो हजग्निरे तस्मात् तस्माज्जाता अजापयः यत्पुरुषं यदधुः कथिताव्यकल्पयन् मुखं किमस्य कौ बाहु का भूरुपादावुच्येते ब्राह्मणोऽस्य मुखमासीत् बाहुराजन्यः कृतः ऊरुदरस्य यद्वैश्यः पद्व्यागुं शूद्रो अजायत चन्द्रमा मनसो जातः चक्षुः सूर्यो अजायत मुखारिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाप्यासीदन्तरिक्षम् शीष्णोद्यौ समवर्तत पभ्याम्भोभिर्दिश श्रोत्रात् तथा लोकागुम अकल्पयन् वेदामेतं पुरुषं महान्तम् आदित्यवर्णं तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वा विवदन्यदास्ते धाता पुरस्ताद्यमुदा चहार शक्रः प्रविद्वान् प्रदिशश्च तस्रः तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते हनाकम् महिमानः सचन्ते यत्र पूर्वे साध्या सन्ति देवाः नद्भ्यः सम्भूत पृथिव्ययसाश्च विश्वकर्मणः समवर्तताधि तस्य स्त्वष्टा विदद्रूपमेति तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतं पुरुषं महान्तम् आदित्यवर्णं तमसः परस्तात् तमेवं विद्वानमृत इह भवति नान्यः पन्था विद्यते जनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीराः परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति वेधसः यो देवेभ्यः तपति यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्मये रुचम् ब्राह्मम् जनयन्तः देवाग्रे तदब्रुवन् यस्त्वैवम् ब्राह्मणो विद्यात् तस्य देवाः सन्वशे श्रीश्च ते लक्ष्मीश्च पत्न्यौ अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्याप्तम् इष्टम् मनिषाणा अमुम् मनिषाणा सर्वम् मनिषाणा तच्छय्योरावृणेमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शं नो अस्तु द्विपदे शं चतुष्पदे
शान्तिः शान्तिः शान्तिः।